एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा सर्वकारेण संघीय संसदः शीतकालिकम् अधिवेशनम् अस्यैव माघमासस्य द्वाविंशे दिवसे आह्वातुम् परामर्शनाय निर्णीतमस्ति सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्यः उपविष्टेन मन्त्रिपरिषदः उपवेशेन अस्यैव माघमासस्य द्वाविंशे दिवसे अपराह्नस्य चतुर्वादनाय संघीय संसदः सदनद्वयस्यैव अधिवेशनम् आह्वातुम् राष्ट्रपतेः समक्षम् परामर्शनाय निर्णीतम् इति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च रेखा शर्मा अज्ञापयत् उपवेशन कोटेश्वर प्रतिच्छेदन मार्ग सुधार आयोजनाया क्रियान्वयनाय प्रस्तावितय एकत्रिंशत अब्जानां कोटिद्वयस्य च रूप्यकाणां सौविध्यपूर्ण ऋण सहायता सम्बद्धायै संविदायै अन्तिमं रूपं प्रदातुं जापानदेशीय सर्वकारेण सह वार्तायै वार्ता समूहं संघटयितुं च निर्णीतमस्ति प्रवक्ता शर्मा अज्ञापयत् प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड आगामिन आर्थिक वर्षस्य नीति कार्यक्रम आयव्ययकञ्च यथासम्भवं जनमुखी निविधास्यते इति प्रतिबद्धतां व्यनक्ति ह्य नेकपा एमाले दलस्य पदाधिकारिणां प्रतिनिधिमण्डलेन सह विहितायां वार्तायां प्रधानमन्त्री प्रचण्ड आगामिन आर्थिक वर्षस्य नीति कार्यक्रमाणां आयव्ययकस्य च संरचनायां समये प्रक्रियायाञ्च गुणात्मकम् परिवर्तनम् विधीयमानमस्ति त्यतः अस्मात् कार्यात् समुचितः परिणामः अधिगम्यते इत्यत्र आत्मनः विश्वासोऽस्तीति अवोचत् एमाले दलस्य अध्यक्षस्य केपी शर्मा ओलिनः नेतृत्वस्य प्रतिनिधिमण्डलेन संकल्पयात्रायाः अभियानस्य क्रमे विभिन्नेष् स्थलेष् जनतया उपस्थापिताः याचनाः एकीकृत्य ताभिस्सहितं सर्वकारस्य समक्षं प्रस्तुतं ध्यानाकर्षणपत्रं गृह्णन् प्रधानमन्त्री प्रचण्डः मध्यपर्वतीय क्षेत्रस्य विकास निर्माणस्य जनसेवायाः समृद्धेश्च विषये एमाले दलेन विहितेन ध्यानाकर्षणेन नेपाल सर्वकारस्य आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमाणां आयव्ययकस्य च निर्माणे महत्वपूर्णं योगदानं प्राप्स्यतीति प्रावोचत् प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड परम्परागत नीति कार्यक्रम हि आयव्ययकेन च देशस्य समस्या समाधातुं न शक्यन्ते इत्यतः आगामिन आर्थिक वर्षस्य आयव्ययकम् अपूर्णायोजनानां निर्माणकार्यस्य सम्पादने केन्द्रितं भविष्यतीति सूचयति सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषद कार्यालये ह्य आगामिन आर्थिक वर्षस्य नीति कार्यक्रमाणाम् आयव्ययकस्य च निर्माणस्य सम्बन्धे पूर्वकार्याय उपविष्टे उपवेशे प्रधानमन्त्री प्रचण्ड अपूर्णायोजनानां पूरणत्वेन आवश्यकं पूर्वकार्यं विधातुम् अन्तर्गतान् निकायान् निरदिशत् तदवसरे प्रधानमन्त्रिणा प्रचण्डेन प्राक्तना योजनाः अव्यवस्थितावस्थायां भवन्ति नूतन नूतना योजनानां वर्धनेन एकत्र कार्याणाम् असम्पादनम् अन्यत्र विपुलानां स्रोतसां नाशनञ्च भवतः इत्यतः अत्र गभीरा भवितुम् अर्थमन्त्रालयस्य राष्ट्रियोजनायोगस्य च ध्यानाकर्षणं व्यदधात् तदवसरे प्रधानमन्त्रिणा प्रचण्डेन षोडश सूत्रीयं निर्देशनं प्रदत्तम् आसीत् उपवेशे अर्थमन्त्री डाक्टर प्रकाश शरण महत अर्थतन्त्रस्य बाह्य सूचकाः अनुकूलः सन्तोपि राजस्व संकलने अपेक्षिता सफलता अधिगता नास्तीत्यतः मितव्ययिनो भूत्वा अग्रे वर्धितुं बलं प्रादात् प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड बुढी गण्डकी जलाशयुक्त विद्युत आयोजना नेपालस्य राष्ट्रिय गौरवस्य बहुआयामिका योजना स्थित्यतः अत्र कार्यतीव्रतां प्रदातुम् अनुरोणद्धि बुढी गण्डकी आयोजनाया अग्रेवर्धनेन सम्बद्धे प्रधानमन्त्री मन्त्रिपरिषद कार्यालये पूर्वीय दिव आयोजिते विमर्शन कार्यक्रमे प्रधानमन्त्री प्रचण्ड आयोजनाया निर्माणस्य कार्याय तीव्रता प्रदेयति बलं प्रादात् प्रधानमन्त्री प्रचण्ड दशवर्षेष् दशसहस्र मेगावाट मिताया विद्युत निर्याताय संविदापत्रे हस्ताक्षराणि सम्पन्नानि सन्तीत्यतः आयोजनाया निर्माण कार्यं शीघ्रं प्रारब्धव्यमिति प्रावोचत् उपवेशे ऊर्जो जलस्रोत सेचन मन्त्री शक्तिबहादुर बस्नेत अवदत् बुढी गण्डकी आयोजना महत्वपूर्णास्ति ऊर्जा संविदाया क्रियान्वयनाय अपि आयोजनेय महत्वपूर्णा वर्तते इत्यतः निवेशनस्य स्रोतसाम् अन्वेषणाय परिचालनाय च तीव्रता प्रदत्ता वर्तते प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड कथयति देशस्य स्वाभिमानस्य रक्षायै सीमा सुरक्षायै च सशस्त्र प्रहरी बलेन गुणात्मकं योगदानं प्रदीयते इति विश्वसितं वर्तते सशस्त्र प्रहरी दिवसस्य त्रयोविंशत वार्षिकोत्सव समारोह यह सम्बोधयन प्रधानमन्त्री प्रचण्ड हिमालय तराई क्षेत्र यावत कठिन भौगोलिक क्षेत्राणि प्राप्य राष्ट्रसेवाया भावनया कार्यक्षेत्रेषु परिचालितानां सशस्त्र प्रहरीणाम् अधिकृतानां च योगदानं महत्वपूर्णमस्तीति प्रावोचत। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्ष महान्यायाधिवक्ता डाक्टर दीनमणि पोखरेलः महान्यायाधिवक्तुः वार्षिक प्रतिवेदनं प्रस्तौत। शीतल निवासवर्तिनी राष्ट्रपति कार्यालये ह्य आयोजिते विशेष समारोहे राष्ट्रपतेः पौडेलस्य समक्ष महान्यायाधिवक्ता दीनमणि पोखरेलः महान्यायाधिवक्तुः कार्यालयस्य गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं प्रस्तौत। प्रतिवेदन ग्रहण पश्चात् राष्ट्रपतिः पौडेलः महान्यायाधिवक्तृ कार्यालयेन विहितानि कार्याणि प्रशंसन् पीडितैः क्षतिपूर्ति सहित न्यायः प्राप्तव्यः इत्यत्र विशेषं ध्यानं प्रदातव्यम् इति प्रावोचत। कार्यक्रमे महान्यायाधिवक्ता पोखरेलः महान्यायाधिवक्तृ कार्यालयेन अभियोजन प्रणालीं सुदृढीकृत्य सर्वकारीय न्यायिक प्रकरणानां प्रतिरक्षणस्य कार्ये प्रतिबद्धो भूत्वा प्रवर्तितमस्तीति उदैरयत्। उपप्रधान रक्षामन्त्री पूर्णबहादुर खड्का विकास निर्माणे सृष्टानां समस्यानां समाधानाय नूतन योजनां निर्मातुं परामृशति। उपप्रधानमन्त्री खड्का रक्षा मन्त्रालये षोडश आवधिक योजनाया निर्माणस्य सन्दर्भे राष्ट्रिय योजना आयोगस्य पदाधिकारिभिस्सह ह्यः विहितस्य विमर्शनस्य क्रमे योजनानां निर्माणे विभिन्नै कारणैः विकास निर्माणे पश्चवर्तितेभ्य प्रदेशेभ्य क्षतिपूर्ति प्रदानेन सहिताया योजनाया निर्माणस्य विषये ध्यानाकर्षणं विदधात्। उपप्रधानमन्त्री खड्का विगते निर्मितानां योजनानां अपूर्णताया कारणम् अन्विष्य समाधानोपायसहितं षोडश्या योजनाया निर्माणाय परामृशत्। नेपाल वायु सेवा निगमेन दुर्गम क्षेत्रेषु सेवा विस्ताराय अन्यानि त्रीणि विमानानि क्रेष्यन्ते। निगमस्य विमानेषु सृष्टानां समस्यानां सम्बन्धे विमर्शनाय ह्य सिंहप्रासादे उपविष्टे प्रतिनिधिसभाया अन्तर्राष्ट्रिय सम्बन्ध पर्यटन समित्या उपवेशे संस्कृति पर्यटन नागरिकोड्डयन मन्त्री सुदन किराती न केवलम् आयम् अपेक्ष्य अपितु निगमस्य दायित्वस्य अनुसारेण दुर्गम जनपदेषु सेवाया विस्ताराय अतिरिक्तानां त्रयाणां लघु विमानानां क्रयणस्य प्रक्रिया अग्रे वर्धापितेति असूचयत्। मन्त्री किराती राजनीतिक हस्तक्षेपेण कार्य निष्क्रिय भवनस्य प्रवृत्त्या निगम हान्यवस्थायाम् अस्तीति निगद्य व्यवस्थापनं सबलं विधाय अस्मिन् वर्षे निगमेन पञ्चानां अब्जानां रूप्यकाणां ऋणं प्रत्यावर्तयितुं सफलता लब्धेति असूचयत्। उपवेश्य निगमस्य कार्यकारी अध्यक्ष युवराज अधिकारी निगमेन लाभापेक्षया गुणस्तरीयतायां सुरक्षायां च प्राथमिकता दत्तेति भाषमाणः। काष्ठमण्डपात् सिंगापुर सिडनी नगरयोः उड्डयनाय पूर्वकार्यं विधीयमानम् अस्तीति अज्ञापयत्। इति समाचारः।